ब्रह्म हवामहे कविम् कवीनामुपमश्रवस्तमम् ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणस्पत आनः शृण्वन् नोतिभिः सीदसादनम् प्रणो देवी सरस्वती वाजिनीवते धीनाम वित्रयवतो गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः हरिः ओम् ॐ नमो भगवते रुद्राय ॐ नमस्ते रुद्रमन्यव उतोत इषवे नमः नमस्ते अस्तु धन्वने बाहुभ्यामुतते नमः यात इषु शिवतमा शिवम् बभूवते धनुः शिवाच रव्यायातवत या नो रुद्रमृडया या ते रुद्र शिवा तनोरघोरा पापकाशिनी तया नस्तनुभाषन्तमया गिरिशन्ताभिचाकशी यामिषुम् गिरिशम् तहस्ते विभश्यस्तवे शिवाम् गिरित्रताम् गुरुमाहि गुंसि पुरुषम् जगते शिवेन वचसा त्वा गिरिसाच्छावदामसि यता नः सर्वमिच्छगत यक्ष्वगुम् सुमना असत् अध्यवोचदति वक्ता प्रथमो दैव्योऽभिषके अहेकश्च सर्वाञ्जम् भयम् सर्वाश्च यातु धान्यः असौ यस्ताम्रो अरुण उत बप्रः सुमङ्गलः ये चेमागुम् रुद्रा अभितो दिक्षश्रुता सहस्रशो वैशागुम् हेड इमहे असव्यो वसर्पति नीलग्रीवो विलोहितः उतैनम् गोपा अदृशन्नदृशन्नुदहार्यः उतैनम् विश्वा भूतानि स दृष्टो मृडयातिनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय वीणुषे अतो ये अस्य सत्त्वानोऽहम् तेभ्यो करणमः प्रवञ्च धन्वनस्त्वमुभयोराग्नियोर्ज्याम् याश्च ते हस्त इषव पराता भगवो वप अवतत्य धनुस्त्वगुम् सहस्राक्षशतेषु ते निशीर्य शल्यानामुका शिवोरस्वमनाभव विच्यम् धनुः कपर्दिनो विशल्यो बाणवागुम् उत अनेशन्नस्येशव आभुरस्य निषङ्गतिः या ते हेतिर्मीडुष्टवहस्ते बभूवते धनुः तया स्मान् विश्वतस्त्वम यक्ष्मया परिपुजा नमस्ते अस्वायुधाय नाततय दृष्टवे उभाव्यामुतते नमो बाहुभ्याम् तव धन्वने परिते धन्वनो हेतिरस्मान्वृणक्तु विश्वतः अतो य इषुदिस्तवारे अस्मन्निदेहितम् नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्र्यम्बकाय त्रिपुरान्तकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः
namo
hiranyabhave senanye disham cha pataye namo namo vrikshebhyo harikeshebhyo pashunam pataye namo namo saste jarayatve shivate patinam pataye namo namo baplushaya vivyadhine nanam pataye namo namo harikeshayo pavitine pushtanam pataye namo namo bhavasya hetye jagatam pataye namo namo rudraya tathavine kshetranam pataye namo namo sutaya hanyayavananam pataye namo namo rohitaya stapataye vrikshanam pataye namo namo mantrine vanijaya kakshanam pataye namo namo bhuvantaye varivaskritaya ushadhinam pataye namo namo uchchairgoshaya krandayate pattinam pataye namo namo kassavitaya khavate sattvanam pataye namaha namassahavanaya nivyadhina avyadhininam pataye namo namo kakubaya nishangine estelanam pataye namo namo nishangina ishodhimate taskaranam pataye namo namo vanchate parivanchate stayonam pataye namo namo nicherave paricharayalanyanam pataye namo namo sikavebhyo jigagum satyo mushtatam pataye namo namo simadbhyo naktam charatya prakrantanam pataye namo namo ushteshide giricharaya kulunchanam pataye namo namo isho madhyo dhanvavebhyascha vo namo namo atanvanebhya pradidadhanebhyascha vo namo namo ayachadhyo vesrajabhyascha vo namo namo syadhyo vityabhyascha vo namo namo asinebhya shayanebhyascha vo namo namo svapadhyo jagrabhyascha vo namo namo srishtadhyo tavabhyascha vo namo namo savavyasavapatebhyascha vo namo namo ashvebhyo shvapatebhyascha vo namaha nama avyadhinibhyo vividhyantibhyascha vo namo namo uganavyastrigum hatibhyascha vo namo namo gritsebhyo gritsapatebhyascha vo namo namo vratebhyo vratapatebhyascha vo namo namo ganebhyo ganapatebhyascha vo namo namo virupebhyo vishvarupebhyascha vo namo namo mahatyah chullakebhyascha vo namo namo ratebhyo ratebhyascha vo namo namo ratebhyo ratapatebhyascha vo namo namo senabhyasenarebhyascha vo namo namah shatrubhyas sangrahetrubhyascha vo namo namastakshabhyo rathakarebhyascha vo namo namah kulalebhyah karmarebhyascha vo namo namah punjeshthebhyo nishadebhyascha vo namo namo ishukrabhyo dhanvakrabhyascha vo namo namo mrigayobhyashvanebhyascha vo namo namo ashvabhyashvapatebhyascha vo namaha नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च नमः कपर्दिने च व्युक्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशाय च शिपिविष्टाय च नमो मीडुष्टमाय चेशुवते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च संवृध्वने च नमो अग्र्याय च प्रथमाय च नम आशवे चाचिराय च नमः शीघ्रियाय च शीव्याय च नमः ऊर्ण्याय चावस्वन्याय च नमः श्रोतस्याय च द्वेप्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय च परजाय च नमो मध्यमाय च अगल्भाय च नमो जघन्याय च बुद्धयाय च नमः सोभ्याय च प्रतिसर्ग्याय च नमो याम्याय च क्षेम्याय च नमः उर्वर्ग्याय च खल्याय च नमः श्रोक्याय चावसान्याय च नमो वन्याय च कक्ष्याय च नमः श्रवाय च प्रतिश्रवाय च नमः आशुषेणाय चाशुरथाय च नमः शूराय चावबिन्दते च नमो वर्मिणे च वरोथिने च नमो बिल्मिने च कवचिने च नमः श्रुताय च श्रुतसेयाय च नमो दुन्दुभ्याय च हनन्याय च नमो धृष्णवे च प्रमृषाय च नमो दूताय च रहिताय च नमो निषङ्गिणे चेशुधिमते च नमस्तीक्ष्णेशवे चायुधिने च नमः स्वायुधाय च सुधन्वने च नमः श्रुत्याय च पक्याय च नमः काट्याय च नीप्याय च नमः शोद्याय च सरस्याय च नमो नाद्याय च वैषन्ताय च नमः कोप्याय च वट्याय च नमो वर्ष्याय च वर्ष्याय च नमो मेघ्याय च विद्युत्याय च नमः ईन्द्रियाय च तप्याय च नमो वात्याय च रेश्म्याय च नमो वास्तव्याय च वास्तुपाय च ॐ हर 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 वो नमः सोमाय च रुद्राय च नमस्ताम्राय चारुणाय च नमः शङ्गाय च पशुपतये च नमः उग्राय च भीमाय च नमो अग्रे वधाय च दूरे वधाय च नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय नमः शम्भवे च मयोभवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च नमस्तेभ्याय च कोल्याय च नमः पार्याय च वार्याय च नमः प्रतरणाय चोत्तरणाय च नमः आचार्याय च लाद्याय च नमः शष्प्याय च पेण्याय च नमः सिकत्याय च प्रवाह्याय च नम इरिण्याय च प्रपत्याय च नमः केगुंशिलाय च क्षयनाय च नमः कपर्दिने च पुलस्तये च नमो गोष्ट्याय च गृह्याय च नमस्तल्प्याय च गेह्याय च नमः काट्याय च गह्वरेष्ठाय च नमो हृदयाय च निवेश्याय च नमः पागं सव्याय च रजस्याय च नमः शुष्क्याय च हरित्याय च नमो लोप्याय चोलप्याय च नमः ऊर्व्याय च सूर्ण्याय च नमः पर्ण्याय च पर्णशत्याय च नमो पगुरमाणाय च विघ्नते च नमः आखिरते च प्रखिलते च नमो वक्किरिकेभ्यो देवानागुं हृदयेभ्यो नमो विक्षीणकेभ्यो नमो विचिन्वक्केभ्यो नम आनिर्हतेभ्यो नम आमीवक्केभ्यः गावे अन्धसस्पते दरिद्रन्नीललोहिता येषाम् पुरुषाणामेषाम् पशूनाम् मा वे मारोमो येषाम् किञ्चन ममत् या ते रुद्रशिवा तनो शिवा विश्वाः भेषजे शिवा रुद्रस्य भेषजे तया नो मृणजीवसे इवागुम् रुद्राय तवसे कपर्दिने क्षयद्वेयाय प्रभरामहे मतिम् यथा नश्यमसद्विपदे चतुष्पदे विश्वम् पुष्टम् ग्रामे अस्मिन्नरातुरम् मृळानो रुद्रोतनो मयस्कृधि क्षयद्वेयाय नमसा विधेमते यच्छम् च योश्च मनुरायजे पिता कलश्याम तव रुद्र प्रणीतो मानो महान्तमुतमानो अर्भकम् मान उक्षन्तमुतमानवुक्षितम् मानो वधे पितरम् मोत मातरम् प्रियामानस्तनुवो रुद्ररीरिषः मानस्तोकेतन ये मान आयुषि मानो गोषु मानो अश्वेषु रीरिषः वीरान्मानो रुद्रभावितो वधेर्हविष्मन्तो नमसा विधेवते आराते गोघ्र उतपोरुषग्ने क्षयद्वीराय सुम् नमस्मेते अस्तु रक्षा च नो अदि च देव रोह्यदा च नश्यन्वयच्च विबर्हाः सुहिश्रुतम् गत्र सदंयुवानम् मृगन्न भीममुपहत्वमुग्रम् मृगाचरित्रे रुद्रस्तवारो अन्यन्ते अस्मन्निव पन्तु सेयाः परिणो रुद्रस्य हेतर्विढक्तुपरिद्वेषस्य दुर्मतिरघायोः अवस्निला भगवद्भ्यस्तनुष्वमीवस्तोकायतनयाय मृळया मेढुष्टमशिव तव शिवो नः सुमना भव परमे वृक्ष आयुधान्निदाय कृत्तिम् वसार आचर पिलाकम् बिभ्रदागहि विलोहित नमस्ते अस्तु भगवः यास्ते सहस्रगुम् हेतयोन्यमस्मन्निव पन्तु ताः सहस्राणि सहस्रदा बाहुवोस्तव एतयः ताशामीशानो भगवः पराचीहामुखाकृधि सहस्राणि सहस्रशो ये रुद्रा अधिभूम्या तेषागुम् सहस्रयोजनेव धन्वानि तन्मते अस्मिन्महत्यन्नवेन्तरिक्षे भवति नीलग्रीवाशितिकण्ठा शर्वा अधः क्षमाचराः नीलग्रीवाशितिकण्ठादिवगुम् रुद्रा उपश्रताः ये वृक्षेषु सस्मे जरारीलग्रेवाविलोहिताः ये भूतानामधिपतयो विशिकासक्कपर्दिनः ये अन्येषु विविध्यन्ति पात्रेषु विमतो जनान् ये पदाम् पतिरक्षय ऐलभृदायव्युदः ये तीर्थानि प्रचलन्ति सुकावन्तो निषङ्गिनः एतावन्तश्च भूयावंशश्च दिशो रुद्राविदस्थिरे तेषागुं सहस्रयो जने वधन्वानि तन्वसे नमो रुद्रेभ्यो ये पृथिव्याम् येन्द्रिक्षे ये दिवि ये चामन्नम् वासो वर्षविषवस्तेभ्यो दश प्राचेर्दश दक्षिणा दश प्रदेचेर्दशोदिचेर्दशोर्दास्तेभ्यो नमस्ते यो मृळयन्तु तेयम् विश्वो यश्च नो द्वे स्थितम् वोजम् हे दधामि त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वालुकमिव बन्धना नृत्योर्वक्षीयमामृतात् यो रुद्रो अग्रव्यो अप्सु य ओषधीषु यो रुद्रो विश्वभुवनाविवेश तस्मै रुद्राय नमो अस्तु ये ते सहस्रमयुतम् पाशा मृत्यो मर्त्याय हन्तवे तान्यज्ञस्य मायया सर्वानवयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानाम् ग्रन्थिरसि रुद्रो वा विशान्तकः तेनाप्याय स्वा नमो रुद्राय विष्णवे मृत्युर्मे पाहि तमस्तु हि अश्विषस्सु धन्वायो विश्वस्य क्षयति भेषजस्य यक्ष्वामहेशो मनसाय रुद्रम् नमोभिर्देवमसुरम् नुवस्य अयम् मे हस्तो भगवान् अयम् मे भगवत्तरः अयम् मे विश्वभेषजो यगुम् शिवाभिमर्शनः ॐ शान्ति शान्ति शान्तिः ॐ अग्ना विष्णो सजोषसेमावर्धन्तु वाङ्गिरः द्युम्नैर्वाजेभिरागतम् वाजश्च मे प्रसवश्च मे प्रयतिश्च मे प्रसितिश्च मे धीतिश्च मे क्रतुश्च मे स्वरश्च मे श्लोकश्च मे श्रावश्च मे श्रुतिश्च मे ज्योतिश्च मे सुवश्च मे प्राणश्च मे अपानश्च मे व्यानश्च मे सुश्च मे चित्तम् च मादितम् च मे वाक्च मे मनश्च मे चक्षुश्च मे श्रोत्रम् च मे दक्षश्च मे बलम् च म ओजश्च मे सहश्च म आयुश्च मे जरा च म आत्मा च मे तनोश्च मे शर्म च मे वर्म च मेऽङ्गानि च मे स्थानि च मे पर्वगुंसि च मे शरीराणि च मे ज्येष्ठ्यम् च म आधिपत्यम् च मे मन्युश्च मे भामश्च मेमश्च मेऽम्भश्च मे जेमा च मे महिमा च मे वरिमा च मे प्रतिमा च मे भस्मा च मे द्राघुया च मे वृद्धम् च मे वृद्धिश्च मे सत्यम् च मे श्रद्धा च मे जगच्छ मे धनम् च मे वशश्च मे द्विषिश्च मे क्रीडा च मे मोदश्च मे जातम् च मे जनिष्यमाणम् च मे सूक्तम् च मे सुकृतम् च मे वित्तम् च मे वेद्यम् च मे भूतम् च मे भविष्यच्च मे सुगम् च मे सुपथम् च मरुद्धम् च मरुद्धिश्च मे कृप्तम् च मे कृप्तिश्च मे मतिश्च मे सुमतिश्च मे शम् च मे मयश्च मे प्रियम् च मेऽनुकामश्च मे कामश्च मे सौमनसश्च मे भद्रम् च मे श्रेयश्च मे पश्यश्च मे यशश्च मे भगश्च मे द्रविणम् च मे यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे विश्वम् च मे महश्च मे संविच्च मे यात्रम् च मे सोश्च मे प्रसोश्च मे शेरम् च मे लयश्च मरुतम् च मे मृतम् च मे यक्ष्मम् च मे नाम यच्च मे जीवातुश्च मे दीर्घायुत्वम् च मेन मित्रम् च मे अभयम् च मे सुगम् च मे शयनम् च मे सोषा च मे सुदिनम् च मे ओर्च मे सोनृता च मे पयश्च मे रसश्च मे घृतम् च मे मधु च मे सद्भिश्च मे सपेतिश्च मे कृषिश्च मे वृष्टिश्च मे जैत्रम् च मौद्भिद्यम् च मे रयिश्च मे रायश्च मे पुष्टम् च मे पुष्टिश्च मे विभु च मे प्रभु च मे बहु च मे भूयश्च मे पूर्णम् च मे पूर्णतरम् च मे क्षितिश्च मे कोयवाश्च मे नम् च मे क्षुच्च मे ब्रीहयश्च मे यवाश्च मे माशाश्च मे तिलाश्च मे मुद्गाश्च मे खल्वाश्च मे गोधूमाश्च मे मसुराश्च मे प्रियङ्गवश्च मे नवश्च मे शामाकाश्च मे निवाराश्च मे अश्मा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे सिकताश्च मे वनस्पतयश्च मे हिरण्यम् च मे यश्च मे शेषम् च मे त्रपुश्च मे श्यामम् च मे लोहम् च मे अग्निश्च म आपश्च मे विरुधश्च म ओषधयश्च मे कृष्टपच्यम् च मे कृष्टपच्यम् च मे ग्राम्याश्च मे पशव आरण्याश्च यज्ञेन कल्पन्ताम् वित्तम् च मे वृत्तिश्च मे भूतम् च मे भूतिश्च मे वसु च मे वसतिश्च मे कर्म च मे शक्तिश्च मे अर्थश्च म एमश्च म इतिश्च मे गतिश्च मे अग्निश्च म इन्द्रश्च मे सोमश्च म इन्द्रश्च मे सविता च म इन्द्रश्च मे सरस्वती च म इन्द्रश्च मे पूषा च म इन्द्रश्च मे बृहस्पतिश्च म इन्द्रश्च मे मित्रश्च म इन्द्रश्च मे वरुणश्च म इन्द्रश्च मे त्वष्टा च म इन्द्रश्च मे धाता च म इन्द्रश्च मे विष्णुश्च म इन्द्रश्च मे श्विनौ च म इन्द्रश्च मे मरुतश्च म इन्द्रश्च मे विश्वे च मे देवा इन्द्रश्च मे पृथिवे च म इन्द्रश्च च मेऽन्तरिक्षम् च म इन्द्रश्च मे द्यौश्च म इन्द्रश्च मे दिशश्च म इन्द्रश्च मे मूर्धा च म इन्द्रश्च मे प्रजापतिश्च म इन्द्रश्च मे अगुंशुश्च मे रश्मिश्च मेधाभ्यश्च मेधिपतिश्च म उपागुंशुश्च मे अन्तर्यामश्च म ऐन्द्रवायवश्च मे मैत्रा वरुणश्च म अश्विनश्च मे प्रतिप्रस्थानश्च मे शुक्रश्च मे मन्थे च म आग्रयणश्च मे वैश्वदेवश्च मे ध्रुवश्च मे वैश्वानरश्च मरुतुग्रहाश्च मेति ग्राह्याश्च म ऐन्द्राग्नश्च मे वैश्वदेवश्च मे मरुत्वदीयाश्च मे माहेन्द्रश्च म आदित्यश्च मे सावित्रश्च मे सारस्वतश्च मे पौष्णश्च मे पार्थिवतश्च मे हार्योजनश्च मे इद्मश्च मे बर्हिश्च मे वेदिश्च मे धिष्णीयाश्च मे सृजश्च मे चमसाश्च मे ग्रावाणश्च मे स्वरवश्च मौपरवाश्च मे धिषवणे च मे द्रोणकलशश्च मे वायव्यानि च मे पूतभृच्छ माधवनीयश्च माग्नेद्रं च मे हविर्धानं च मे गृहाश्च मे सजश्च मे पुरोडाशाश्च मे पचताश्च मे वभृदश्च मे स्वगाकारश्च मे अग्निश्च मे घर्मश्च मेऽर्कश्च मे सूर्यश्च मे प्राणश्च मे अश्वमेधश्च मे पृथिवी च मे दितिश्च मे दितिश्च मे द्यौश्च मे शक्वरीरङ्गुलयो दिशश्च मे यज्ञेन कल्पं ताम्रक्ष मे साम च मे सोमश्च मे यजुश्च मे दीक्षा च मे तपश्च मरुतुश्च मे व्रतं च मे होरात्रयोर्वृष्ट्या बृहद्रथन्तरे च मे यज्ञेन कल्पेता गर्भाश्च मे वत्साश्च मे त्रयविश्च मे त्रयवे च मे द्वितीयवाच्च मे द्वितीयोगे च मे पञ्चाविश्च मे पञ्चावे च मे त्रिवत्सश्च मे त्रिवत्सा च मे तुर्यवाच्च मे तुर्योहे च मे पष्ठवाच्च मे पष्ठौ हे च मवुक्षा च मे वशा च मऋषभश्च मे वेहश्च मे नड्वाञ्च मे धेनुश्च मायुर्यज्ञेन कल्पताम् प्राणो यज्ञेन कल्पतामपानो यज्ञेन कल्पताम् व्यानो यज्ञेन कल्पताम् चक्षुर्यज्ञेन कल्पताग्श्रोत्रैर्यज्ञेन कल्पताम् मनो यज्ञेन कल्पताम् वाक् यज्ञेन कल्पताम् आत्मा यज्ञेन कल्पताम् यज्ञो यज्ञेन कल्पताम् एका च मे तिस्रश्च मे पञ्च च मे सप्त च मे नव च म एकादश च मे त्रयोदश च मे पञ्चदश च मे सप्तदश च मे नवदश च म एकविगुंसतिश्च मे त्रयोविगुंसतिश्च मे पञ्चविगुंसतिश्च मे सप्तविगुंसतिश्च मे नवविगुंसतिश्च म एकत्रिगुंषच्च मे त्रयस्त्रिगुंषच्च मे चतस्रश्च मेऽष्टौ च मे द्वादश च मे षोडश च मे विगुंसतिश्च मे चतुर्विगुंसतिश्च मेऽष्टाविगुंसतिश्च मे द्वात्रिगुंषच्च मे षट्त्रिगुंषच्च मे चत्वारिगुंषच्च मे चतुश्चत्वारिगुंषच्च मे अष्टाचत्वारिगुंषच्च मे वाजश्च प्रसवश्चापिजश्च क्रतुश्च सुवश्च मूर्धा च व्यश्नियस्यान्त्यायनस्यान्त्यश्च भुवनश्च भुवनश्चाधिपतिश्च इरा देवहोर्मनुर्यज्ञनिर्बृहस्पतिरुक्था मदानि शगुं त्रिषद्विश्वे देवासोक्तवाच पृथिवीमातर्मा माहिगुंसीर्मधुमनिष्ये मधुजनिष्ये मधुवक्ष्यामि मधुवदिष्यामि मधुमतीम् देवेभ्यो वाचमुद्यासगुम् शुश्रूषेण्याम् मनुष्येभ्यस्तम् मा देवा अवन्तु शोभायै पितरोऽनुमदन्तु शान्ति शान्ति शान्तिः। क्षय्योरावृणीमहे गातुं यज्ञाय गातुं यज्ञपतये दैवे स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वं जिगातु भेषजम् शन्नो अस्तु द्विपदे शं चतुष्पदे ॐ शान्ति शान्ति शान्तिः सहस्रशीरुषा पुरुषः सहस्राक्षः सहस्रपात् स भूमिम् विश्वतो वृत्वा अत्यतिष्ठद्दशाङ्गुलम् पुरुष एवेदगुम् सर्वम् यद्भूतम् यच्च भव्यम् उतामृतत्वस्येषा नः यदन्नेनातिरोहति एतावानस्य महिमा अतोज्यायागश्च पुरुषः पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतम् दिवे त्रिपादोर्भवुदैत्पुरुषः पादोऽस्येहाभवात् पुनः ततो विश्वम् व्यक्रामत् शासनानशने अभि तस्मात् विराडजायत विराजो अधिपुरुषः स जातो अत्यरिच्यत पश्चात् भूमिमतो पुरः यत्पुरुषेण हविषा देवा यज्ञमतन्वता वसन्तो अस्यासीदाज्यम् ग्रीष्म युग्मः शरद्धविः सप्तास्यासर्परिधयः त्रिसप्तसमिदः कृताः देवा यद्यज्ञम् तन्वानाः अबध्रम् पुरुषम् पशुम् तञ्यज्ञम् बर्हिषि प्रोक्षन् पुरुषम् जातमग्रतः तेन देवा अयजन्ता साध्यार्षयश्च ये तस्माद्यज्ञात् सर्वहुतः संभृतम् वृषदाज्यम् पशोगुस्तागुश्चक्रे वायव्यान आरण्यान् ग्राम्याश्च ये तस्माद्यज्ञात् सर्वहुतः ऋषः सामानि जग्निरे छन्दागुंसि जग्निरे तस्मात् यजुस्तस्मादजायत तस्मादश्वा अजायन्त एके चोभयादतः गावोह जग्निरे तस्मात् तस्माज्जाता अजावयः यत्पुरुषम् व्यदधुः कलिदा व्यकल्पयन् मुखम् किमस्य कौ बाहो कावोरोपादा उच्येते ब्राह्मणोऽस्य मुखमासीत् बाहोराजन्यः कृतः ओरो तदस्य यद्वैश्यः पद्भ्यागुम् शूद्र अजायत चन्द्रमा मनसो जातः चक्षोः सूर्यो अजायत मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत नाभ्या आसीदन्तरिक्षम् शेष्णोद्यौ समवर्तत पद्भ्याम् भूमिर्दिश श्रोत्रात् तथा लोकागुम् अकल्पयन् वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसस्तु पारे सर्वाणि रूपाणि विचित्य धीरः नामा ಕರ್ಮಾಣಿ ಕೃತ್ವಾಭಿವದನ್ ಯದಾಸ್ತೆ ಧಾತಾ ಪುರಸ್ತಾದ್ಯ ಮುದಾ ಜಹಾರ ಶಕ್ರ ಪ್ರವಿದ್ವಾನ್ ಪರಿಶಶ್ಚತಸ್ರಃ ತಮೇವಂ ವಿದ್ವಾನಮೃತ ಇಹ ಭವತಿ ನಾನ್ಯಃ ಪಂಥಾ ಅಯನಾಯ ವಿದ್ಯತೆ ಯಜ್ಞೇನ ಯಜ್ಞಮಯಜಂತ ದೇವಾಃ ತಾನಿ ಧರ್ಮಾಣಿ ಪ್ರಥಮಾನ್ಯಾಸನ್ ದೇಹನಾಕಂ ಮಹಿಮಾನಃ ಸಜಂತೆ ಯತ್ರ ಪೂರ್ವೇ ಸಾಧ್ಯಾ ಸಂತಿ ದೇವಾಃ ಅರ್ಭ್ಯಃ ಸಂಭೂತ ಪೃಥಿವ್ಯೈರಸಾ ಚ ವಿಶ್ವಕರ್ಮಣಃ ಸಮವರ್ತತಾದಿ ತಸ್ಯ ತ್ವಷ್ಟಾ ವಿದದದ್ರೂಪಮೇತಿ ತತ್ಪುರುಷಸ್ಯ ವಿಶ್ವಮಾಜಾನಮಗ್ರೇ ವೇದಾಹಮೇತಂ ಪುರುಷಂ ಮಹಾಂತಂ ಆದಿತ್ಯವರ್ಣಂ ತಮಸಃ ಪರಸ್ತಾತ್ ತಮೇವಂ ವಿದ್ವಾನಮೃತ ಇಹ ಭವತಿ ನಾನ್ಯಃ ಪಂಥಾ ವಿದ್ಯತೆ ಯನಾಯ ಪ್ರಜಾಪತಿಶ್ಚರತಿ ಗರ್ಭೇ ಅಂತಃ ಅಜಾಯಮಾನೋ ಬಹುಧಾ ವಿಜಾಯತೆ ತಸ್ಯ ಧೀರಾ ಪರಿಜಾನಂತಿ ಯೋನಿಂ ಮರೀಚೀನಾಂ ಪದಮಿಚ್ಛಂತಿ ವೇಧಸಃ ಯೋ ದೇವೇಭ್ಯ ಆತಪತಿ ಯೋ ದೇವಾನಾಂ ಪುರೋಹಿತಃ ಪೂರ್ವೋ ಯೋ ದೇವೇಭ್ಯೋ ಜಾತಃ ನಮೋ ರುಚಾಯ ಬ್ರಾಹ್ಮಯೇ ಋಚಂ ಬ್ರಾಹ್ಮಂ ಜನಯಂತಃ ದೇವಾ ಅಗ್ರೇ ತದಬ್ರುವನ್ ಯಸ್ತ್ವೈವಂ ಬ್ರಾಹ್ಮಣೋ ವಿದ್ಯಾತ್ ತಸ್ಯ ದೇವಾ ಅಸನ್ವಶೇ ಹ್ರೀಶ್ಚ ತೇ ಲಕ್ಷ್ಮೀಶ್ಚ ಪತ್ಯೋ ಅಹೋರಾತ್ರೇ ಪಾರ್ಶ್ವೇ ನಕ್ಷತ್ರಾಣಿ ರೂಪಂ ಅಶ್ವಿನೌ ವ್ಯಾತ್ತಂ ಇಷ್ಟಂ ಮನಿಷಾನಾ ಅಮಂ ಮನಿಷಾನಾ ಸರ್ವಂ ಮನಿಷಾನಾ ತಚ್ಛಯ್ಯೋರಾವೃಣೀಮಹೇ ಗಾತುಂ ಯಜ್ಞಾಯ ಗಾತುಂ ಯಜ್ಞಪತಯೇ ದೇವೇ ಸ್ವಸ್ತಿರಸ್ತುನಃ ಸ್ವಸ್ತಿರ್ಮಾನುಷೇಭ್ಯಃ ಊರ್ಧ್ವಂ ಜಿಗಾತು ಭೇಷಜಂ ಶನ್ನೋ ಅಸ್ತು ದ್ವಿಪದೇ ಶಂಚತುಷ್ಪದೇ ಓಂ ಶಾಂತಿ 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 ಓಂ ಅತ್ರಿಣಾತ್ವಾ ಕ್ರಿಮೇಹಂ ಕಂಗೇನ ಜಮದಗ್ನಿನಾ ವಿಶ್ವಾವಸೋರ್ಬ್ರಹ್ಮಣಾ ಹತಃ ಕ್ರಿಮೀಣಾಗುಂ ರಾಜಾ ಅಪ್ಯೇಷಾಗಸ್ಥಪತಿರ್ಹತಃ ಅಥೋ ಮಾತಾ ಅಥೋ ಪಿತಾ ಅಥೋ ಸ್ಥೂರಾ ಅಥೋ ಕ್ಷುದ್ರಾ ಅಥೋ ಕೃಷ್ಣ ಅಥೋ ಶ್ವೇತ ಅಥೋ ಆಶಾತಿಕಾ ಹತಾ ಶ್ವೇತಾಭಿಃ ಸಹ ಸರ್ವೇ ಹತಾ ಆಹರಾವದ್ಯ ಶ್ರುತಸ್ಯ ಹವಿಷೋ ಯಥಾ ತತ್ ಸತ್ಯಂ ಯದಮುಯ್ಯವಸ್ಯ ಜಂಭಯೋ ಆದಧಾವಿ ತಥಾ ಹಿ ತತ್ ಫಣ್ ಫಣ್ ಮೃಸಿ ಓಂ ಶಾಂತಿ 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 ಓಂ ಸಂಸವಿದ್ಯುವಸೆ ವೃಷನ್ನಗ್ನೆ ವಿಶ್ವಾನ್ಯರ್ಯ ಇಳಸ್ಪದೇ ಸವಿದ್ಯಸೇ ಸ ನೋ ವಸೋಣ್ಯಾಭರಾ ಸಂಗಚ್ಛದ್ವಂ ಸಂವದದ್ವಂ ಸಂಭೋವನಾಂಸಿ ಜಾನತಾಂ ದೇವಾಭಾರಯ್ಯಥಾ ಪೂರ್ವೇ ಸಂಜ್ಞಾನಾ ಉಪಾಸತೆ समानो मन्त्रः समिति समानि समानम् मनसः चित्तमेषाम् समानम् मन्त्रमभिमन्त्रयेव समानेन वो हविषा जुहोमि समानीव आकोतिः समान हृदयानि वः समानमस्तु वो मनो यथा वत्सु सहासते ॐ शान्ति शान्ति शान्तिः ॐ प्रातरग्निम् प्रातरिन्द्रगुम् हवामहे प्रातर्मित्रावरुणा प्रातरश्विना प्रातर्भगम् पोषणम् ब्रह्मणस्पतिम् प्रातः सोममुत रुद्रगुम् हुवेम प्रातर्जितम् भगमुग्रगुम् हुवेम वयम् पुत्रमधितेर्यो विधर्ता आद्रश्चिद्यम् मन्यमानस्तुरश्चिद्राजा चिद्यम् भगम् भक्षेत्याः भगप्रणेतर्भगसत्यराजो भगेमाम् धियमुदवदन्नः भगप्रणो जनयगोभिरश्वैर्भगप्रणुभिर्नृवन्तः स्याम उतेदानीम् भगवन्तः स्यामोत प्रपित्त उत मध्ये अह्ना उतोदितामघवन् सूर्यस्य वयम् देवानागुम् सुमतौ स्याम भग एव भगवागुम् अस्तु देवास्तेन वयम् भगवन्तः स्याम त्वन्त्वा भगः सर्व इज्जो हवेभिसनो भगपुर एता भवेह समध्वरायोषसो नमन्तदधिक्रावे वशुचये पदाय अर्वाचीनम् वसुविदम् भगन्नो रथमिवाश्व वाचिन आवहन्तु अश्वावतीर्गोमतीर्न उषासो वीरवतीः सदमुच्छन्तु भद्राः कृतम् दुहाना विश्वतः प्रपीणा योऽयम् पातः स्वस्तिभिः सदा नः यो माग्ने भागिनगुम् सन्तमता भागम् चिकीर्षति अभागमग्ने तम् कुरु मामग्ने भागिनम् कुरु ॐ शान्ति शान्ति शान्तिः ॐ आसक्त्येन रजसा वर्तमानो निवेशयन्नमृतम् मर्त्यम् च हिरण्ययेन सवितारथेन देवो याति भुवना विपश्यन् अग्निम् दूतम् वृणीमहे होतारम् विश्ववेदसम् अस्य यज्ञस्य सुक्रतुम् येषामीशे पशुपतिः पशूनाम् चतुष्पदामुतचद्विपदा निष्क्रेतोऽयम् यज्ञियम् भागमेतुराय पोषाय यजमानस्य सन्तो ॐ अधिदेवता प्रत्यधिदेवता सहिताय आदित्याय नमः ॐ आप्याय स्वसमेतु ते विश्वतः सोमवृष्णियम् भवावाजस्य सङ्गते अप्सु मे सोमो अब्रवीदन्तर्विश्वानि भेषजा अग्रिम् च विश्वशम्भुवमापश्च विश्वभेषजेः गौरीमिमाय सलिलानि तक्षत्येकपदे द्विपदे सा चतुष्पदे अष्टापदे नवपदे बभूवुषि सहस्राक्षरा परमे व्योमन् ॐ अधिदेवता प्रत्यधिदेवता सहिताय सोमाय नमः అగ్నిర్మూర్ధాదివ కకుఃపతి పృథివ్యా అయం అపాగుం రేతాగుంసి జిన్వతి యోనాప్లతి విభవానుక్షరా నివేశనే యచ్ఛానః శర్మ సప్రథాః క్షేత్రస్య పతినా వయగుం ఇతేనేవ జయామసి గామశ్వం పోషయత్ర వాసనో మృడ ఈదృశే ఓం అధిదేవత ప్రజ్జహి దేవత సహితాయ అంగారకాయ నమః ఉద్భుజస్వాగ్ని ప్రతిజాగృహ్యే నమిష్టా పూర్తే సగుం సృజే కామయం చ పునః కృణ్వగస్త్వా పితరం యువానమన్వాతాగుం సేత్వైదంతు మేతం ఇదం విష్ణుర్విచక్రమే త్రేధాని తదే పదం సమూఢమస్య పాగుం సురే విష్ణోరరాటమసి విష్ణో పృష్టమసి విష్ణోష్ణత్రే స్తో విష్ణోస్యూరసి విష్ణో ధ్రువమసి వైష్ణవమసి విష్ణవే త్వా ఓం అధిదేవత ప్రత్యధిదేవత సహితాయ బుధాయ నమః ఓం బృహస్పతే అతియదర్యో అర్హాద్యుమద్విభాతి క్రతుమజ్జనేషు యద్దీదయచ్చవసర్త ప్రజాత తదస్మాసు ద్రవిణం దేహి చిత్రం ఇంద్రమరుత్వ ఇహ పాహి సోమయ్యథాచార్యాతి అపి భస్సుతస్య తవ ప్రణీతి తవ శూరశర్మన్నా వివాసంతి కవయస్సు యజ్ఞాః బ్రహ్మజ్ఞానం ప్రథమం పురస్తాత్ విసీమతః సురుచో వేన ఆవహ స బుద్ధియా ఉపమా అస్య విష్టా సతశ్చ యోనిమదతశ్చ వివః అధిదేవత ప్రత్యధిదేవత సహితాయ బృహస్పతయే నమః ఓం ప్రవశుక్రాయ భానవే భరద్వగుం హవ్యం మతిం చాగ్నయే సుపూతం యో దేవ్యాని మానుషా జనో గుష్యంతర్విశ్వాని విద్మనాజిగాతి ఇంద్రాణీ మాసు నారిసు సుపత్నీ మహవశ్రవం నహ్యస్యా అపరం చ నజరసామరతే పతిః ఇంద్రం వో విశ్వతర్పరి హవామహే జనేభ్యః అస్మాకమస్తు కేవలః ఓం అధిదేవత ప్రత్యధిదేవత సహితాయ శుక్రాయ నమః ఓం శరణో దేవేరవిష్టయ ఆపో భవంతు పీతయే శయ్యోరవిశ్రవంతు నః ప్రజాపతేన త్వదేతాన్యన్యో విశ్వా జాతాని పరితాపభూవ యత్తామాస్తే జుహుమస్తన్నో అస్తు వయగ్గస్యామపతయోరయేనా ఇమం యమః ప్రస్థరమాహి సీదాంగిరోభిః పితృభిః సంవిధానః ఆత్వా మంత్రా కవిశస్తావహంత్వే నారాజన్ అవిషామాదయస్వ ఓం అధిదేవత ప్రత్యధిదేవత సహితాయ శనైశ్చరాయ నమః ఓం కయానశ్చిత్ర ఆభువధూతి తథా వృధః సఖా కయాశతిష్ఠయా వృతా ఆయంగో ప్రశ్నిరక్రమే దశనం మాతరం పునః పితరం చ ప్రయంసువః యత్తే దేవే నిరృతిరాభవంధదావగ్రేవా స్వవిచర్త్యం ఇదం తే తద్విశ్యామ్యాయుషో న మధ్యా తదా జీవ పితుమద్భిః ప్రముక్తః ఓం अधिदेवता प्रत्यधिदेवता सहिताय राहवे नमः। ॐ केतुम् कृण्वन्न केतवेपेशो मर्य अपेशसे शमुसद्भिरजा यथाः ब्रह्मा देवानाम् पदवे कवीनाम् ऋषिर्विप्राणाम् महिषो मृगाणाम् श्येनो रुद्रा नागस्वदितिर्वना नागुम् सोम पवित्रमत्येतिरेभन्न सचित्रचित्रम् चितयम् तमस्मि चित्रक्षत्रचित्रतमम् वयोधाम् चन्द्रम् रयिम् पुरुवीरम् बृहन्तम् चन्द्रचन्द्राभिर्घृणते युवस्वा। ॐ अधिदेवता प्रच्छदिदेवता सहितेभ्यः केतुभ्यो नमः। ॐ आदित्यादिनवग्रहदेवताभ्यो नमो नमः। ॐ शान्ति शान्ति शान्तिः। ॐ जातवेदसे सुनवाम सोममराति यतो निदहाति वेदः स नः पर्षदति दुर्गाणि विश्वानावेव सिन्धुम् दुरितात्यग्निः तामग्निवर्णान् तपसा ज्वलन्तीम् वैरोचनीम् कर्म फलेषु दुष्टा दुर्गाम् देवीगुम् शरणमहम् प्रपद्ये सुतरसि तरसे नमः। अग्ने त्वम् पारयानव्यो अस्मान् स्वस्तिभिरति दुर्गाणि विश्वा ओश्च पृथ्वी बहुलान उर्वे भवा लोकायतनयाय शय्यो विश्वानि नो दुर्गः जातवेधः सिन्धुम् न नावा दुरितातिपर्षि अग्ने अत्रिवन्मनसा गृणानो स्माकम् बोध्यमिता तनूनाम् पृतनाजितगुंसह मानमुग्रमग्निगुम् हुवेम परमात्सदस्तात् स नः पर्षदति दुर्गाणि विश्वाक्षामद्देवो अतिदुरितात्यग्निः प्रत्योजिकमेद्यो अध्वरेषु सनाच्च होत नव्यश्च सत्से स्वाञ्चाग्ने तनुवम् विप्रयस्वास्मभ्यम् च सौभगमायजस्व गोभिर्जुश्च मयुजो निषिक्तन्तवेन्द्रविष्णो तनुसञ्चरेमा नाकस्य पृष्ठमभि संवसा नो वैष्णवे लोक इह मादयन्ताम् कात्यायनाय विद्महे कन्यकुमारि धीमहि तन्नो दुर्गे प्रचोदयात् न कर्मणा न प्रजयातनेनत्यागेनैके अमृतत्वमानशुः परेण नाकन्निहितम् गुहाया विभ्राजतेतत्यतयो विशन्ति वेदान्तविज्ञानसुनिश्चितार्था सन्न्यासयोगात् यथयः शुद्धसत्त्वाः ते ब्रह्मलोके तु परान्तकाले परामृतान् परिमुच्यन्ति सर्वे नक्रम् विपापम् परमेष्वभूतम् यत्पुण्डरीकम् पुरमज्ज सद्गस्तम् तत्रापि नक्रम् गगनम् विशोदस्तस्मिन् यदन्तस्तदुपासितव्यम् यो वेदादौ स्वर प्रोक्तो वेदान्ते च प्रतिष्ठितः तस्य प्रकृतिरीरश्च यः परश्च महेश्वरः स्वस्ति प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महिम् महेशाः ब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु। समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ शान्ति शान्ति शान्ति